एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते एकोनविंशतेः खर्वाणां चतुष्षष्ठेः अब्जानाम् एकादश कोटीनां च रूप्यकाणाम् आयव्ययकम् संघीय संसदि प्रस्तुतम् वर्तते। यः संघीय संसदः प्रतिनिधिसभायाः राष्ट्रसभायाश्च संयुक्त उपवेशे आयव्ययकम् प्रस्तुवन् उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः संचालनपक्षे एकादश खर्वः अशीतिः अब्जानि अष्टनवति कोटयश्च रूप्यकाणि, धनसंचयनपक्षे चतुर् सप्त अब्जानि एकोननवति कोटयश्च रूप्यकाणि, वित्तीय व्यवस्थायै त्रय खर्वः पञ्चसप्ततिः अब्जानि चतुर्विंशति कोटयश्च रूप्यकाणि च विनियुक्तानि सन्तीति प्रावोचत्। अर्थमन्त्री पौडेलः आगामिनि आर्थिक वर्षे प्रतिशतं षड्भि अंकहि आर्थिक वृद्धिः, प्रतिशतं दशमलव पञ्चोत्तर पञ्चभिरंकहि मुद्रास्फीतिः च भविष्यति इति लक्ष्यम् आयव्ययकेन गृहीतमस्ति इति अवोचत्। आयव्ययकेन आत्मनिर्भरार्थतन्त्रस्य आधारं निर्मातुं स्थानीय स्तरेष् उत्पादनं वृत्त्युपार्जनं च वर्धयितुं देशस्य आर्थिक विकासस्य लक्ष्यम् अधिगन्तुं च बलं प्रदत्तम् वर्तते। एवमेव सर्वकारेण प्रस्तुतेन आयव्ययकेन उद्यमशीलतायाः वृद्धिः, सामाजिक सुरक्षायाः प्रभावकारिता, निवेशस्य उत्पादनस्य च वृद्धिः, सुलभ स्वास्थ्य सेवायाः प्राप्तिः, सुशासनं भ्रष्टाचार नियन्त्रणं चेति आर्थिक सुधारस्य नीतिः अवलम्बिता अस्ति। अत्रान्तरे सर्वकारेण प्रस्तुते आगामिनः आर्थिक वर्षस्य आयव्ययक विवरणे राजनैतिक दलैः मिश्रिता प्रतिक्रिया दत्ता अस्ति। सत्तापक्षस्य दलैः आयव्यय विवरणं सन्तुलितं, देशस्य अर्थतन्त्रस्य सुधाराय समर्थन च अस्ति इति उक्तं वर्तते चेत् प्रमुख प्रतिपक्षिणा माओवादी केन्द्रेण सह अन्यै प्रतिपक्षिदलैः आयव्ययक विवरणं नैराश्यजनकम् अस्ति इति उक्तं वर्तते। एवमेव उद्योगिभिः व्यवसायिभिश्च आयव्ययक विवरणे मिश्रिता प्रतिक्रिया प्रदत्ता वर्तते। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः वर्तमानार्थिक वर्षस्य आर्थिक सर्वेक्षणं प्रास्तौत्। आर्थिक सर्वेक्षणं प्रस्तुवन् अर्थमन्त्री पौडेलः वर्तमानार्थिक वर्षे देशस्य आर्थिक वृद्धिः दशमलवैकषष्ट्युत्तर चतुर्भि अंकहि भविष्यति, नेपालस्य अर्थतन्त्रस्य आकारः एकषष्टिः खर्वः सप्त अब्जानि च रूप्यकाणि प्राप्स्यति इति अनुमितं वर्तते इति असूचयत्। अर्थमन्त्री पौडेलः वर्तमानार्थिक वर्षस्य अष्टमासानाम् अवधौ सम्पूर्ण गार्हस्थ्योत्पादन वृद्धौ कृषिक्षेत्रस्य योगदानं दशमलव षोडशोत्तर पञ्चविंशत्या प्रतिशतम्, उद्योगक्षेत्रस्य योगदानं दशमलव त्रित्युत्तर द्वादशभि अंकहि, सेवाक्षेत्रस्य योगदानं दशमलव शून्योत्तर द्वाषष्ट्या प्रतिशतं च भविष्यति इति अनुमितम् वर्तते इति अज्ञापयत्। अर्थमन्त्री पौडेलः वर्तमानार्थिक वर्षे प्रतिव्यक्ति राष्ट्रिय आयः वर्धित्वा सहस्रं सप्तदशोत्तर पञ्चशतं च अमेरिका देशीय डलर मुद्रा प्रापिताः सन्ति इति अवदत्। तत्पूर्वम् उपवेशस्य प्रारम्भणे नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीयः हितराज पाण्डे आर्थिक सर्वेक्षणम् आयव्ययकञ्च प्रस्तोतुं प्रदत्ते सत्यपि पर्यटनाय देशान्तर प्रवेशानुज्ञा प्रकरणस्य अनुसन्धानाय उच्चस्तरीयानुसन्धानायोगस्य अनिर्माणं गृहमन्त्रिणा रमेश लेखकेन त्यागपत्रस्य अप्रदानं यावत् संसदं संचालयितुं न दास्यते इति उदैरयत्। राष्ट्रिय योजना आयोगस्य पूर्णोपवेशेन आगामिनां त्रयाणाम् आर्थिक वर्षाणां मध्यकालिकी व्यय संरचना स्वीकृता अस्ति। सीमाप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां ह्य उपविष्टेन उपवेशेन आगामिनः आर्थिक वर्षात् चतुरशीत्यधिक द्विसहस्र पञ्चाशीत्यधिक द्विसहस्रतम विक्रम वर्षं यावत् त्रिवर्षात्मिकायाः मध्यकालिकी व्यय व्यवस्थायाः वार्षिक विकास कार्यक्रमः स्वीकृतोऽस्ति। तदवसरे राष्ट्रिय योजना आयोगस्य उपाध्यक्षः प्राध्यापकः डॉ शिवराज अधिकारी आर्थिकानुशासनेन सहिताय विकासाय बलं दातुं सर्वान् मन्त्रालयान् निरदिशत्। गणतन्त्र दिवसः ह्य आराश्रम विविधै कार्यक्रमैः समायोजितोऽस्ति। गणतन्त्र दिवसस्य अवसरे ह्य गणतन्त्र दिवस मूल समारोह समित्या काष्ठमण्डपस्य टुडीखेल नामके सैनिक मञ्चे विशेष समारोह समायोजितः। राष्ट्रपतिः रामचन्द्र पौडेलः गणतन्त्र दिवसस्य अवसरे काष्ठमण्डपस्य टुडीखेलवर्तिनी सैनिक मञ्चे आयोजिते समारोहे सहभागी अभवत्। तदवसरे नेपाली सेनया राष्ट्रपतये पौडेलाय सैन्याभिवादनम् अर्पितमासीत्। समारोहं सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली जनताया आन्दोलनेन विस्थापिताया राजसंस्थाया पुनः स्थापनम् एतस्मिन् युगे असम्भवम् अस्ति इति अभाषत। प्रधानमन्त्री ओली गणतन्त्र दिवस राजमुकुटस्य आदेशात्मक शासन व्यवस्थाया स्थाने जनताया हृदयस्य मतेन शासन संचालन प्रारभणस्य दिनम् अस्तीत्यतः अनेन दिनेन जनता स्वयमेव आत्मनः स्वामी अस्तीति निश्चितो वर्तते इति प्रावोचत्। तदवसरे प्रधानमन्त्री ओली सुशासनाय विकास निर्माण कार्याणि संचालयितुं सहज सेवा प्रवाहस्य अनुभूतिं जनेभ्यो दापयितुं च सर्वकारः स्पष्टतया अग्रेसरो वर्तते इति अभाषत। प्रधानमन्त्री ओली संविधानस्य क्रियान्वयनं संघीयतायाः सबलीकरणं अर्थतन्त्रे सुधारः पुनरुत्थानञ्च सुशासन प्रवर्धनं नागरिक मैत्री शासन स्थापनं भ्रष्टाचार नियन्त्रणञ्च सर्वकारस्य प्राथमिकतायां विद्यन्ते इति प्रावोचत। समारोहे उपराष्ट्रपति रामशाह प्रसाद यादव सभामुख देवराज घिमिरे राष्ट्रियसभाया अध्यक्ष नारायण प्रसाद दाहाल प्रधान न्यायाधीश प्रकाशमान सिंह राउत सांविधानिक निकायानां प्रमुख मन्त्रिण उच्च सर्वकारीय अधिकारिणश्च सहभागिन आसन्। वर्षाणां सहकालस्य च देवतेति प्रसिद्धस्य रक्तमत्सिन्द्रनाथस्य रथयात्रा ह्यः सम्पन्ना अस्ति। ह्यः रक्तमत्सिन्द्रनाथस्य रथस्य ललितपुर जनपदस्य लवनखेलस्थानात् जावलाखेलस्थानं प्राप्तेः अनन्तरं रथयात्रा समाप्ता वर्तते। यात्रेयं गतवैशाखमासस्य अष्टादश दिवसात् ललितपुर जनपदस्यैव पुलचोकस्थानात् प्रारब्धासीत्। जावलाखेलस्थानं यावत् रथयात्रां कृत्वा ततः रक्तमत्सिन्द्रनाथं दोलायां स्थापयित्वा बुग्मतीस्थानं यावत् नयनस्य परम्परा वर्तते। आगामिनि रविवासरे जावलाखेलस्थाने पारम्परिकं सांस्कृतिकं च भोटे जात्रेति नाम्ना प्रथितं कञ्चुक प्रदर्शन पर्व विधिपूर्वकं सम्पादयिष्यते। ततः परं रक्तमत्सिन्द्रनाथस्य मूर्तिं दोलायां स्थापयित्वा वाद्यवादनै सह बुग्मतीस्थाने प्रापणानन्तरमेव अस्य वर्षस्य सम्पूर्ण यात्रा समाप्स्यति। रथयात्रेयं नेपालस्य इव सर्वापेक्षया अधिककालं मासद्वयं यावत् सञ्चाल्यमाना यात्रा अस्ति इति प्रथितं वर्तते। कास्की जनपदस्य पोखरा महानगरपालिकायाः पञ्चविंशे वडा क्षेत्रे मर्दी नद्यां जलक्रीडायाः क्रमे निमज्य बालकद्वयं मृतं वर्तते इति समाचारः।